अस्य श्री राहु कवच स्तोत्र महामंत्रस्य चंद्र ऋषिः अनुष्टुप् छन्दः राहुर्देवता नीबीजम् ह्रीं शक्तिः कम् कीलकम् मम राहुग्रह प्रसाद सिद्ध्यर्थे जपे विनियोगः नीलांबरः शिरः पातु ललाटं लोकवंदितः चक्षुषी पातु मे राहुः श्रोत्रे मेऽर्ध शरीरवान् नासिकां मे कराळास्य शूलपाणिर्मुखं मम जिह्वां मे सिंहिका सूनुः कण्ठं मे कण्ठनाशनः भुजङ्गेशो भुजौ पातु नीलमाल्यकरौ मम पातु वृक्षस्तपो मूर्तिः पातु नाभिं विधुं तुदः कटिं मे विकटः पातु वूरु मे सुरपूजितः स्वर्भानुर्जानुनी पातु जङ्घे मे पातु चाप्यहः गुल्फौ गृहादिपः पातु नीलचन्दनभूषितः पादौ नीलाम्बरः पातु सर्वाङ्गं सिंहिकासुतः।